त्र्यशीत्युत्तर द्विसहस्रतमस्य नवीनस्य विक्रमवर्षस्य अवसरे रेडियो नेपालः सम्पूर्ण श्रोतृभ्यः विज्ञापनदातृभ्यः शुभेच्छुकेभ्यः सर्वेभ्यो नेपालीभ्यश्च सुखस्य शान्तेः समृद्धेः सुस्वास्थ्यस्य सफलजीवनस्य च कृते हार्दिम मंगलमयीं शुभकामनाम् अभिव्यनक्ति। एषा रेडियो नेपालः। सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तुत्री रत्नावली शर्मा। अद्यतः त्र्यशीत्युत्तर द्विसहस्रतमो विक्रम संवत्सरः समारब्धो वर्तते। विक्रमवर्षस्य प्रथमे दिवसे अद्य नेपालीभिः परस्परं शुभकामनादान प्रदानाभ्याम् नववर्षस्य स्वागतं विधीयमानमस्ति। सूर्यस्य मीनराशेः भोगं समाप्य मेषराशौ प्रवेशस्य दिवसः वैशाख संक्रान्तित्वेन संगृह्यते। वैशाखमासस्य संक्रान्तिरेव नेपाले नूतनवर्षत्वेन मन्यते। सौरमानस्य चान्द्रमानस्य च समन्वयेन निर्मित संवत्सरः एव विक्रम संवत् अस्ति। विक्रमस्य अर्थः पराक्रमः, आदित्यस्यार्थः सूर्यश्चेति सूर्योपासकेनैव प्रारब्धत्वात् संवत्सरोऽयं विक्रम संवत्सर इति नाम्ना व्यवह्रियते इति नेपाल पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितं वर्तते। कलियुगारम्भस्य चतुश्चत्वारिंशदधिक त्रिसहस्र वर्षानन्तरं विक्रम संवत्सर प्रारब्ध आसीत्। संवत्सरोऽयं रौद्र नामक संवत्सरो वर्तते। राष्ट्रपति रामचन्द्र पौडेल नववर्षारम्भावसरे सर्वेभ्यो जनेभ्य सुखस्य, शान्तेः, समृद्धेः, सुस्वास्थ्यस्य, भ्रातृत्वस्य, एकतायाः, सर्वमुख विकासस्य, प्रगतेश्च कृते शुभकामनाम् अभिव्यक्तवान् वर्तते। एवमेव उपराष्ट्रपतिना रामसाहेब प्रसाद यादवेन नववर्षारम्भे शुभकामनां प्रयच्छता नववर्षमिदं अभूतपूर्वायै राष्ट्रियैकतायै सर्वेभ्य प्रेरणां प्रयच्छतु इत्युक्तं वर्तते। प्रधानमन्त्रिणा बालेन्द्र शाहेन पूर्वेद्युः बागमती प्रदेशस्य सांसदैस्सह विमृष्टमस्ति। सिंहप्रासादवर्तिनी प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये सम्भूते विमर्शने बागमती प्रदेशस्य विकासस्य, स्थानीय सर्वकारैस्सह समन्वयस्य, संचालितानाम् आयोजनानां च विषयेषु विमृष्टम् वर्तते। एतत्पूर्वं प्रधानमन्त्री शाह विभिन्नानां प्रदेशानां संघीय सांसदैस्सह सामयिक विषयेषु चरणबद्धतया विमृष्टवान् आसीत्। विशेषरूपेण विकासायोजनानां, सेवाप्रवाहस्य, केन्द्रस्य, प्रदेशानां च समन्वयस्य च विषये विमृष्टमस्तीति ज्ञापितं वर्तते। तदवसरे प्रधानमन्त्री शाह सांसदैः उत्थापितः विषयः आयव्ययिकस्य प्राथमिकतायाः आधारेण क्रियान्वेष्यन्ते इति प्रतिबद्धताम् अभिव्यनयत्। प्रतिनिधि सभाया सभामुखेन डोलप्रसाद अर्यालेन संसदीयाभ्यासस्य प्रणाल्याश्च विषयेषु पूर्वसभामुखैस्सह विमृष्टमस्ति। सभामुख अर्यालः पूर्वसभामुखाभ्याम् देवराज घिमिरेभिधेन, अग्निप्रसाद सापकोटाभिधेन च सह पूर्वेद्युः मेलवार्ताम् विहितवान् वर्तते। तदवसरे नेपालस्य संसदीयाभ्यासस्य विगतकालिकानाम् अनुभवानां, संघीय संसदः प्रभावपूर्णस्य संचालनस्य, विधायन प्रक्रियायाः सुदृढीकरणस्य च विषयेषु विमृष्टमस्तीति सभामुखस्य सचिवालयेन ज्ञापितं वर्तते। अत्रान्तरे प्रतिनिधिसभायाः उपसभामुख रूबी कुमारी ठाकुरः ह्य पदभारं गृहीतवती अस्ति। उपसभामुखपदीयया ठाकुर इत्यनया ह्य एव सभामुखेन डोलप्रसाद अर्यालेन सह प्रथमा औपचारिकी वार्ता विहिता अस्ति। सभामुख अर्यालः उपसभामुखाय ठाकुर इत्यस्यै वर्धापनानि शुभकामनाश्च प्रायच्छत्। शिक्षा विज्ञान प्रविधि मन्त्रालयेन नियमानुसारेण छात्रवृत्तेः अप्रदायकान् विद्यालयान् विध्यनुसारेण दण्डयितुं सर्वे स्थानीय स्तराः समन्वयाय सहजीकरणाय च अनुरुद्धाः सन्ति। मन्त्रालयेन ह्य संघीय विषय सामान्य प्रशासन मन्त्रालयाय पत्राचारं विधाय शिक्षाधिनियमस्य नियमावल्याश्च अनुसारेण नैजैः सार्वजनिकैश्च विद्यालयैः विद्यार्थी संख्यामाधृत्य निर्देशानुसारेण प्रतिशतं दशेभ्यो विद्यार्थिभ्य छात्रवृत्तिं प्रदातुं छात्रवृत्तेः विवरणम् अद्यावधिकं कृतं न वेति विषये अनुगमनं सहजीकरणं च विधातुं सर्वे स्थानीय स्तराः अनुरुद्धा वर्तन्ते। एवमेव छात्रवृत्तिं लब्धवतां छात्राणां विवरणं पारदर्शितया प्रकाशयितुं छात्रवृत्तेः विवरणस्य अद्यावधिकं न कृतवतः विद्यालयान् एतत् कार्यं सम्पादयितुं निर्देष्टुं च पत्रे उक्तं वर्तते। गृहमन्त्री सुदन गुरूङ कथयति राष्ट्रम राष्ट्रियतांश प्रति दायित्ववाहिनः उत्तरदायिनः प्रतिबद्धाश्च सन्तः कार्याणां सम्पादनम् अद्यतने आवश्यकता वर्तते। पूर्वेद्युः राष्ट्रिय सशस्त्र प्रहरी बल नेपाल प्रशिक्षण प्रतिष्ठानेन काष्ठमण्डपस्य माता तीर्थस्थाने आयोजिते कार्यक्रमे गृहमन्त्री गुरूङ सर्वकारस्य नीति कार्यक्रमाणां प्रभावकारिणः क्रियान्वयनस्य माध्यमेन देशविकासे सशस्त्र प्रहरिणा महत्वपूर्ण भूमिका निरूह्यते इति विश्वासं व्यक्तवान्।